अथ षोडशोऽध्यायः श्रीभगवानुवाच अभयं सत्त्वसंशुद्धिं ज्ञानयोगव्यवस्थितः दानं दमश्च यज्ञश्च स्वाध्यायस्तप आर्जवम् अहिंसा सत्यमक्रोधास्त्यागः क्षान्तिरपौषुणाम् दया भूतेष्वलो लुप्त्वम् अदर्वम् हीरचापलम् तेजः क्षमा धृतिः शौच्यम् अद्रोः नीतिमानिता भवन्ति सम्पदम् दैवीम् अभिजातस्य भारत दम्बो दर्पोऽभिमानश्च क्रोधः पारुष्यमेव च अज्ञानम् चाभिजातस्य पार्थसम्पदमासुरिम् दैवीम् सम्पदविमोक्षाय निबन्धायासुरीमता मासु च सम्पदम् दैवीम् अभिजातोऽसि पाण्डव द्वौभूतः स्वर्गलोकेऽस्मिन् दैव आसुर एव च दैवो विस्तरशः प्रोक्त आसुरम् पार्थमेक्षुणु प्रवृत्तिम् च निवृत्तिम् च जनान विदुरासुराः न शौचम् नापि चाचारो न सत्यम् तेषु विद्यते असत्यमप्रतिष्ठन्ते जगदाहुनरीश्वरम् अपरस्परम् सम्भूतम् किमन्यत्कामहैतुकम् एताम् दृष्टिमवष्टभ्य नष्टात्मनु अल्पबुद्धयः प्रवद्यन्त उग्रकर्मणः क्षयय जगतो हिताः काम आश्रित्य दुष्पूरम् दम्भमानमदन्विताः मोहाद्गृहीत्वा सद्ग्रहणान् प्रवर्तन्ते शुचिवर्तताः चिन्तामपरमेयांश्च प्रलयान्तमुपार्श्रिताः कामोपभोगपरमा एतावदति निश्चिताः आशापाशशतैर्बद्धः कामक्रोधपरायणाः इहन्ते कामभोगार्थम् अन्यायेनार्थसञ्चयन् इदमध्यमया लब्ध्वम् इदम् प्राप्स्य मनोरथम् इदमस्तिदमपि मे भविष्यन्ति पुनर्धनम् असो मया हतः शत्रु हर्निश्ये चापरानपि ईश्वरोऽहम् अहम् भोगी सिद्धोऽहम् बलवान् सुखी आढ्योऽभिजनवानस्मि को अन्यो सुदृशो मया यस्ये दास्यामि मोदिश्य इत्यज्ञानविमोहिताः अनेकचित्तविभ्रान्ता मोहजालसमावृताः प्रसक्ता कामभोगेषु पतन्ति नरके शुचौ आत्मसम्भविताः स्तब्धा धनमानवदन्विताः यजन्ते नाम यज्ञस्ते दम्भेनाविधिपूर्वकम् अहङ्कारम् बलम् दर्पम् कामम् क्रोधम् च संश्रिताः मामात्मपरदेहेषु प्रदिश्यन्तो भूयसकाः तानहम् द्विषतः क्रूरान् संसारेषु नराधमान् क्षिप्राम्यजर्षमशुभान् आसुरिष्वेव योनिषु आसुरिम् योनिमापन्ना मूढा जन्मनि जन्मनि मामप्राप्त्येव कौन्तेय ततो यान्ति धमाम् गतिम् त्रिविधम् नरकस्येदम् द्वारम् नाशनमात्मनः कामक्रोधस्तता लोभस्तस्मादेतत्त्रयम् त्रजेत् एतैर्विमुक्तकौन्तेय तमो द्वारतिभिर्नरः आचरत्यात्मनः श्रेयस्ततो यान्ति पराम् गतिम् यः शास्त्रविधिमुत्सृज्य वर्तते कामकारतः न स सिद्धिमवाप्नोति न सुखम् न पराम् गतिम् तस्माक्षास्तम् प्रमाणम् ते कार्यकार्यववस्थितो ज्ञात्वा शास्त्रविधानोत्वम् कर्म कर्तुमिहार्हसि ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्म विद्यायाम् योगशास्त्रे श्रीकृष्णार्जुन संवादे दैवासुर संपद विभाग योगो नाम षोडशोऽध्यायः।